विष्णवे तदस्य प्रियमभिपाथो अस्याम्
कविं कविं कवीनामुपमस्त्रवस्तमम्
घृतं घृतयोनेऽपि वप्रप्रा